हरे कृष्णा. नेक्स्ट वी विल लर्न टेक्स्ट 58 फ्रॉम चैप्टर 18, कंक्लूशन द परफेक्शन ऑफ रिनंसिएशन फ्रॉम भगवद्गीता एज इट इज. प्लीज रिपीट आफ्टर मी 3 times. मच्चित्ता
मच्चित्ता मच्चित्ता मच्चित्ता
सर्वदुर्गाणि
सर्वदुर्गाणि सर्वदुर्गाणि सर्वदुर्गाणि
मत्प्रसादात्
मत्प्रसादात् मत्प्रसादात् मत्प्रसादात्
तरिष्यसि
तरिष्यसि तरिष्यसि तरिष्यसि अतचेत्वम्
अहंकारान्
अहंकारान् अहंकारान् अहंकारान्
न
न न न
श्रोष्यसि
श्रोष्यसि श्रोष्यसि श्रोष्यसि
विनंक्ष्यसि
विनंक्ष्यसि विनंक्ष्यसि विनंक्ष्यसि.
Okay, I'll recite each line. You repeat after me 3 times. Machitta sarvadurgani.
Machitta sarvadurgani. Machitta sarvadurgani. Machitta sarvadurgani.
Matprasadatarishyasi.
Matprasadatarishyasi. Matprasadatarishyasi. Matprasadatarishyasi.
Atachetvam ahankaran.
Atachetvam ahankaran. अथ चेतम् अहंकारान् अथ चेतम् अहंकारान्
न श्रोष्यसि विनंक्ष्यसि
न श्रोष्यसि विनंक्ष्यसि न श्रोष्यसि विनंक्ष्यसि न श्रोष्यसि विनंक्ष्यसि.
I'll recite the whole verse now. मच्चित्ता सर्वदुर्गाणि मत्प्रसादातरिष्यसि अथ चेतम् अहंकारान् न श्रोष्यसि विनंक्ष्यसि.
मच्चिता सर्वदुर्गाणि मत्प्रसादातरिष्यसि अथ चेत्त्वम् अहंकारान् न श्रोष्यसि विनंक्ष्यसि.
Translation by Jivanagesh AC Bhaktivedanta Swami Srila Prabhupada. If you become conscious of me, you will pass over all the obstacles of conditioned life by my grace. If, however, you do not work in such consciousness but act through false ego, not hearing me, you will be lost.